सहनावतु सहनौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः। श्रीगुरुभ्यो नमः, हरिः ओम्।
धन्यवादः महोदय। सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र लृङ्लकारः इति। तत्र लृङ्लकारः इति एकवारं वयं पठितवन्तः, तस्मिन् विषये किञ्चित् भ्रमः जातः इति कृत्वा तदनन्तरं वयं तत्र जनार्दन हेग्डे महोदयस्य करपत्रमपि पठितवन्तः। तदनन्तरम् इदानीं पुनः अत्र आगत्य तत्र लृङ्लकारस्य पठनं तत्र कर्तुम् इच्छामः। अस्तु तर्हि तत्र शोभा भगिनी नमस्कारः, लक्ष्मी भगिनी नमस्कारः।
नमस्कारः महोदय।
नमस्कारः भगिनी, नमस्कारः। पुटसङ्ख्या अस्ति 108। अस्तु तर्हि अतः तत्र तत्र सुजाता भगिनी तत्र आरम्भं करोति वा तत्र लृङ्लकारः इति।
आं महोदय।
अतः तत्र प्रायशः तत्र स्वीकृत्य किञ्चित् गतवर्गे वयम् एतत् न पठितवन्तः खलु।
महोदय।
अतः तत्र अस्तु आरम्भतः तत्र लृङ्लकारः इति
लृङ्लकारः एतत् सम्भाषणम् उच्चैः पठतः। आचार्यः वदति, विजये गीतोपदेशस्य कारणं जानासि किम्? आचार्यः वदति, विजय
गीतोपदेशमुद्दिश्य
विजयमुद्देश्य आचार्यः वदति गीतोपदेशस्य कारणमिति जानाति। शिष्यः वदति, आं जानामि, अर्जुनस्य विषादः तत्र कारणम्। अर्जुनः यदि विषादाविष्टः न अभविष्यत् तर्हि कृष्णः गीतां न उपादेष्यत्
इति अस्माकं मूलविषयः तत्र अभविष्यत् उपादेष्यत् इति
उपादेष्यत्।
इदानीं तत्र भवती एव तत्र गतवर्गे यत् वयं पठितवन्तः तस्मिन् विषये किञ्चित् वदतु तत्र सरलवाक्यं स्वीकृत्य।
अर्जुनः यदि
एतत् मास्तु, केवलं तत्र भवत्याः एव तत्र सरलवाक्यं तत्र लृङ्लकारस्य यदि तत्र बालकः
सम्यक् पठितवान् तर्हि उत्तीर्णः अभवत्।
अस्तु तत्र अस्तु भगिनि, तत्र प्रथमतया अर्थस्य अवगमनार्थं सुलभतया अवगमनार्थं तत्र विधिलिङ्गकारस्य उपयोगेन एकवारं तद् वाक्यं वदतु।
छात्रः सम्यक्
पठितवान् स्यात्
परीक्षायाम् उत्तीर्णः
भूतवान् स्यात् उत्तीर्णः भूतवान् स्यात् इति समीचीनम्। अतः तत्र सर्वे अवगच्छन्ति खलु तत्र यदि बालकः सम्यक् पठितवान् स्यात् तर्हि सः उत्तीर्णः भूतवान् स्यात् इति वाक्यम् इति वदामः। तत्र किम् अवगच्छामः, तत्र एतत् सत्यवाक्यमस्ति, तत्र नाम एतद् वाक्यम् अस्ति, तत्र साक्षात् वस्तुस्थितिः का? तत्र सुजाता भगिनी, तत्र बालकः पठितवान् वा?
बालकः न पठितवान्,
बालकः न पठितवान् अतः तत्र पठनक्रिया न अभवत्
अभवत्
वा
उत्तीर्णः न अभवत्
हा सः उत्तीर्णः अपि न अभवत् तत्र उत्तीर्णः न भूतवान् एतद् वक्तुं वयम् इच्छामः तत्र सः उत्तीर्णः न भूतवान् किन्तु वयं चिन्तयामः अस्तु किन्तु यदि सः पठितवान् तर्हि सः उत्तीर्णः भूतवान् स्यात् एतस्य समानार्थकवाक्यं ऋल्लकारस्य उपयोगेन वयं पठामः तस्य ध्वनिः अस्तु एतस्य समानार्थकवाक्यं वयं कर्तुं समानार्थकं वाक्यं कर्तुम् इच्छामः इदानीं तत्र लृङ्लकारस्य उपयोगेन अतः लृङ्लकारस्य प्रयोगे रूपं कथं भवति
छात्रः सम्यक्
यदि
छात्रः सम्यक् अपठिष्यत् परीक्षायां
सः
उत्तीर्ण
अभविष्यत् पुनः वाक्यं
यदि छात्रः सम्यक् अपठिष्यत् तर्हि परीक्षायाम् उत्तीर्णः अभविष्यत्
यत्र लृङ्लकारः अस्ति अपि नकारः न दृश्यते तत्र सः अपठिष्यत् इति अस्ति चेत् सः न पठितवान् सः उत्तीर्णः अभविष्यत् इति अस्ति तत्र नकारः नास्ति तत्र सः उत्तीर्णः न भूतवान् इति ज्ञातव्यमस्ति अस्माभिः अस्तु तत्र नूतनतया वंशी सुधा भगिनी नमस्कारः पुटसङ्ख्या अस्ति 108 अस्तु अस्तु तर्हि इदानीं तत्र अग्रे तत्र हर्षदा भगिनी तत्र अग्रे तत्र यद् वाक्यं तत्र सुजाता भगिनी पठितवती तस्मिन् विषये तत्र अभविष्यत् इति रूपं कथं आगच्छति इति अग्रिमे पुटे दृष्ट्वा किञ्चित् वदति वा तत्र चित्रम् अस्ति भवति अभवत् भविष्यति इति अस्ति
भवति भूधातोः लट् लकारस्य प्रथमपुरुष एकवचनरूपम् अभवत् लङ् लकारस्य प्रथमपुरुष एकवचनरूपं भविष्यति इति लृट् लकारस्य प्रथमपुरुष एकवचनरूपम् अभविष्यत् मध्ये लृङ्लकारे अभविष्यत् भविष्यति लङ् लकारस्य अ तथा हलन्तत्व आगमिष्यति मध्ये लुट् लकारस्य विश्य भविष्य आगच्छति
हा समीचीनं भगिनि उत्तमम् उत्तमं हा एतदेव अस्ति अतः तत्र सोपानेन तत्र भविष्यति लङ्लकारे अभवत् लुट् लकारे भविष्यति इदानीं द्वयोः मेलनेन तत्र अभविष्यत् इति तत्र समीचीनम् आदौ अपि अन्ते लङ्लकारस्य रूपं मध्ये लृट् लकारस्य इष् इति स्थापनम् इति समीचीनं भगिनि अतः तत्र इदानीं तत्र अभविष्यत् इति कृतम् इदानीं तत्र उपाधीक्ष्यत् इति अस्ति तत्र उपसर्गः अस्ति तत्र उपसर्गः अस्ति चेत् अस्माकं नियमः कः
प्रथमं क्रियापदस्य रूप करणीयम् अनन्तरं तस्य स्थापनीयं किम् उपसर्गस्थापनीयं तत्र यदि सन्धिः भवितुम् अर्हता अस्ति तर्हि करणीयं
हा समीचीनं समीचीनं भगिनि तत्र अत्र उपाध्यक्ष्यत् इति तत्र लट्लकारे रूपं किम् अस्ति तस्य
उपादिश्यति आदेशति आदेशति
हा उपदिशति इति अस्ति
उपदिशति आम् उपदिशति
उपसर्गः इदानीं तत्र दिश् इति अस्ति दिश् इति तत्र अदिशत् इति किं भवति लङ्लकाररूपे रूपम् अदिशत्
उप अधिक अदिशत् उपादिशत् भविष्यति
हा उपादिशत् इति तत्र हा किन्तु इदानीं तत्र सोपानेन गच्छामः अन्तिमसोपाने सर्वं तत्र लृङ्लकारस्य साक्षात् निर्माणं कृत यदा कुर्मः तदनन्तरं तत्र उप् इति स्थापयामः अतः तत्र केवलम् इदानीम् अदिशत् इति स्वीकुर्मः यथा भवती उक्तवती तत्र लृङ्लकारस्य निर्माणे उपसर्ग त्यजामः अतः तत्र अदिशत् तदनन्तरं तत्र लृट् लकारे तत्र एक्ष्यति इति भवति तत्र यत्र यत्र शकारः अस्ति तत्र हलन्त दिश् इति अपि अस्ति तत्र क्ष इति तत्र आगच्छति अतः तत्र देक्ष्यति इति भवति रूपम् अग्रे गत्वा तत्र कथम् इति पश्यामः किन्तु इदानीं मास्तु अतः तत्र देक्ष्यति इति अस्ति इदानीं मेलनेन रूपं किं भवति केवलं दिशति इति क्रियापदस्य लृङ्लकारः
क्षम्यतां महोदय पुटसङ्ख्या
किं
अत्र अर्जुनेन सह यदि कृष्ण श्रीकृष्णः
तदेव तदेव अस्ति 108 तत्र यदि गीतां न अपठिष्यं नूतनपुस्तके अन्यत् किमपि अस्ति वा भवत्याः पुस्तके किमस्ति
तदेव अस्ति महोदय
अर्जुनेन सह यदि श्रीकृष्णः न अभविष्यत् तर्हि सः युद्धं न अकरिष्यत्
तत् तत् अधोभागे अस्ति सत्यं 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 किन्तु इदानीं सम्भाषणम् इति किम् अस्ति तत् तस्मिन् विषये चर्चां समीचीनं तदेव तदेव पुटम् अस्तु अस्तु धन्यवादः हर्षदः भगिनी धन्यवादः इदानीं तत्र
धन्यवादः महोदय
हा धन्यवादः भगिनि अस्तु अग्रे तत्र शोभा भगिनी इदानीं तत्र वाक्यस्य अर्थः कः इति वदति वा भगिनि शोभा भगिनी
क्षम्यतां महोदय तत्र किञ्चित् ध्वनिः आसीत् पुनः वदतु कृपया
हा हा तत्र तत्र वाक्यमस्ति अर्जुनः यदि विषादाविष्टः न अभविष्यत् तर्हि कृष्णः गीतां न उपादेक्ष्यत् इति इदानीं तत्र वयं रूपं कथं भविष्यति इति दृष्टवन्तः इदानीं तस्य वाक्यस्य अर्थः कः इति
तत्र अर्जुनेन सह यदि श्रीकृष्णः न अभविष्यत्
न न न तत्र कुत्र कुत्र अधोभागे न भगिनि अधोभागे नास्ति सम्भाषणे
सम्भाषणे अस्तु
सम्भाषणे अर्जुनः यदि विषादाविष्टः न अभविष्यत्
विषादाविष्टः न अभविष्यत् तर्हि कृष्णः गीतां न उपादेक्ष्यत् तर्हि तत्र अर्जुनः विषादविष्टः अभविष्यत् अभवत्
तत्र न अभविष्यत् इति अस्ति
अभविष्यत् इति अस्ति अतः अर्थः भवति सः अभवत्
हा अस्तु अतः तत्र
विषादविष्टः विषादाविष्टः अभवत् अतः कृष्णः गीताम् उपदिशत् उपदेक्षत् क्षमताम् उपादेक्षत्
इदानीं तत्र वस्तुस्थितिः सा एव अस्ति समीचीनं किन्तु तत्र
वस्तुस्थितिः एव पृष्टवान् किल महोदय
हा इदानीं तत्र अर्थः नाम तत्र अस्तु तत्र समानार्थकवाक्यं तत्र भिदिलिङ्गकारस्य वदतु
अस्तु महोदय तत्र अर्जुनः विषादविष्टः भूतवान्
हा
भूतवान् अतः कृष्णः गीताम् उपदिष्टवान्
हा किन्तु साक्षात् वाक्यं तत्र न इति अस्ति तत्र विधिलिङ्गकारे अपि तत्र न भवति खलु
तत्र लृङ्लकारे विधिलिङ्ग क्षम्यतां महोदय अस्तु तत्र यदि अर्जुनः विषादविष्टः न अभवत् तर्हि कृष्णः गीता
तत्र न न इदानीं तत्र विधिलिङ्ग् खलु अतः तत्र अभवत् इति नास्ति खलु तत्र
विधिलिङ्ग्
तत्र केवलं भूतवान् इति तत्र तव तु अपि विधिलिङ्ग् इति गतवर्गे वयं दृष्टवन्तः खलु
सरलम् अस्ति तव तु अपि अस्तु यदि अर्जुनः विषादविष्टः न भूतवान् तर्हि कृष्णः
भूतवान् स्यात्
भूतवान् स्यात् क्षमतां भूतवान् स्यात् तर्हि कृष्णः गीतां न उपदिष्टवान् स्यात्
हा इति खलु
आम् आम् आम्
तत्र यथा तत्र लृङ्लकारे अस्ति तथैव तत्र विधिलिङ्ग् तत्र तव तु विधिलिङ्गकारे अपि तथैव अस्ति नकारः अस्ति चेत् तत्रापि नकारः अस्ति यदि नकारः नास्ति तत्र लृङ्लकारे वयं जानीमः सा घटना न अभवत् इति किन्तु नकारः अस्ति चेत् अस्तु
सा
घटना अभवत् इति अत्र तत्र यत् भवत्या उक्तं समीचीनं हा तत्र अभवत् सः विषादविष्टः अभवत् अपि कृष्णः श्रीकृष्णः अपि तत्र गीतां तत्र उपादिशत्
तत्र महोदय विधिलिङ्गे तर्हि यदि अर्जुनः विषादविष्टः न भवेत् इति भवति तर्हि कृष्णः गीतां गीतायाः उपदेशं न कुर्यात्
तत्र नो हा इति सरलं सरलतया वक्तुं शक्नुमः
विधिलिङ्गि
अस्तु अस्तु समीचीनं यतः तत्र सर्वे जानन्ति इति मन्ये इदानीं तत्र लृङ्लकारस्य अर्थः कः नाम तयोः मध्ये कारणकार्यभावः अस्ति अपि तत्र क्रियाद्वयमस्ति क्रियाद्वयमपि न अभवत् किन्तु प्रथमक्रिया कारणमस्ति द्वितीयक्रिया तस्य कार्यं नाम एफेक्ट् इति अस्ति किन्तु क्रियाद्वयमपि न अभवत् इति अस्माकं चिन्तनं तद् वक्तुम् इच्छामः अतः तत्र लृङ्लकारस्य अतः केवलं सम्भावना तत्र यदि एतद् अभवत् स्यात् अथवा भूत एतत् अभव तत्र भवेत् तत्र तर्हि अन्यत् किमपि अपि भवेत् इति केवलं तत्र कल्पना एव तत्र साक्षात् एतद् न अभवत् केवलं कल्पना अस्तु तर्हि अग्रे सरामः तर्हि अग्रे तत्र नरेशमहोदय तत्र अग्रे पठिष्यति वा नरेशमहोदय प्रिया भगिनी नमस्कारः पुटसङ्ख्या अस्ति 108 अस्तु नरेशमहोदय नास्ति वा अस्तु सः म्यूट् मध्ये अस्ति अस्तु तर्हि लक्ष्मी भगिनी अग्रे
अस्तु किन्तु अर्जुनः विषादं कथम् अनुभूतवान्
न तत्र लृङ्लकारस्य किमपि नास्ति हा तत्र अर्जुनः विषादं कथम् अनुभूतवान्
आचार्यः अर्जुनः युद्धपरिणामे स्वस्य अधिकारसम्बन्धं स्थापितवान् अतः विषादः जातः यदि सः कर्मण्येव स्वाधिकारम् अस्थापयिष्यत् तर्हि तस्य विषादः न अभविष्यत्
हा इदानीं पुनः तत्र किञ्चित् विवृणोतु तत्र
अर्जुनः युद्धपरिणामे स्वस्य अधिकारसम्बन्धं स्थापितवान् सः सः कर्मणि एव
अतः विषादः जातः विषादः जातः तत्र भावः विषादः जातः विषादः उत्पन्नः केन तत्र एतत् अर्जुनः तत्र किमपि कृतवान् अतः तत्र विषादः जातः अर्जुनः किं कृतवान्
स्वस्य अधिकारसम्बन्धं स्थापितवान्
सः स्थापितवान् किं स्थापितवान् अधिकारसम्बन्धम्
अधिकारसम्बन्धं स्थापितवान्
तत्र कुत्र स्थापितवान् अधिकारसम्बन्धं
युद्धपरिणामे
युद्धपरिणामे तत्र यदा युद्धं भवति तदनन्तरं तस्य युद्ध तत्र युद्धः अस्ति तत्र तस्य तदनन्तरं किं तस्य तस्मिन् विषये तस्य चिन्तनम् आसीत् खलु अतः सः किं तत्र युद्धपरिणामे तत्र सः युद्धं करोति इति चिन्तितवान् खलु तत्र अतः तत्र
यदि सः बान्धवानां मारयति चेत् किं
बान्धवान् मारयति चेत् हा सः बान्धवान्
मारयति किं भविष्यति इति चिन्तनं तस्य मनसि
हा इति कृतवान् अतः तत्र तत्र तस्य सः चिन्तितवान्
सः विषादः तस्य विषादः जातः
इति समीचीनम् अतः तत्र युद्धपरिणामे तस्य अधिकारसम्बन्धं सः स्थापितवान् अतः विषादः जातः किन्तु
यदि सः कर्मण्येव स्वाधिकारम् अस्थापयिष्यत् तर्हि तस्य विषादः न अभविष्यत्
हा इति तत्र यदि सः
कर्मण्येव
तत्र स्वाधिकारं केवलं तत्र कर्मण्येव यदि सः अस्थापयिष्यत् अतः तत्र सः स्थापितवान् वा न स्थापितवन्तः हा न स्थापितवान् अतः तत्र विषादः अपि अभवत् अतः तत्र प्रथमभागे तत्र नकारः अस्ति अतः द्वितीयभागे नकारः अस्ति अतः तत्र विषादः अभवत् इति जानीमः अस्तु समीचीनम् इदानीं तत्र विधिलिङ्गकारम् उपयुज्य तत्र स्थापितवान् स्यात्
यदि सः कर्मण्येव स्वाधिकारं स्थापितवान् स्यात् तर्हि तस्य विषादः न भविष्यति
भूतवान् स्यात्
सः भूतवान् स्यात्
स्थापितवान् यथा तत्र सः स्थापितवान् अत्र कर्म क्रिया कर्तृपदं किमस्ति विषादः पुल्लिङ्गे अस्ति खलु अतः विषादः न भूतवान् स्यात् तत्र भूतवान् इति विषादः इति पदस्य विशेषणं न तु अर्जुनस्य अतः तत्र विषादः न भूतवान् स्यात् इति भवति समीचीनम् अस्तु अग्रे तत्र इदानीं तत्र अपर्णभगिनी अग्रे पठितुम् इच्छति वा
आं महोदय पठामि विजयः वदति अस्तु यदि अर्जुनः एतत् युद्धम् अधर्मविरुद्धम् इति विचिन्त्य अयोत्सयत तर्हि तस्य विषादः न अभविष्यत् अत्र यदि अर्जुनः एतद् युद्धम् अधर्मविरुद्धम् इति विचिन्त्य युद्धं कृतवान् स्यात् तर्हि तस्य विषादः न भूतवान् स्यात्
तत्र यः सः यदि सः अर्जुनः
यदि अर्जुनः एतत् युद्धम् अधर्मविरुद्धम् इति विचिन्त्य युद्धं
कृतवान् इति स्वीकरोति
युद्धं कृतवान् स्यात् तर्हि तस्य विषादः न भूतवान् स्यात्
हा इति समीचीनं तावदेव अस्ति हा समीचीनं भगिनि अतः तत्र सः तत्र प्रथमभागे तत्र नकारः नास्ति अतः तत्र तादृश तत्र किं सः अर्जुनः विचिन्त्य अयोत्स्यत तत्र किन्तु तादृशचिन्तनम् अकृत्वा सः युद्धं कर्तुं करोमि इति चिन्तितवान् तर्हि तस्य विषादः न अभविष्यत् नकारः अस्ति अतः तत्र विषादः अभवत् इति जानीमः
विषादः जातः
एव इति समीचीनं अतः तत्र लृङ्गलकारे एतस्मिन्नेव विषये तत्र भ्रमः भवति तत्र अभवत् अथवा न अभवत् अतः तत्र नकारः नास्ति चेत् तत्र किं भवति नकारः नास्ति चेत् न अभवत् नकारः अस्ति चेत् अभवत् इति एव अस्ति अस्तु समीचीनं भगिनि अस्तु अग्रिममपि करोति वा
आम् महोदय मीनाक्षी वदति अवश्यं खलु अर्जुनः आदौ न चिन्तितवान् यत् धर्मकार्यं न अभविष्यत् चेत् अहं गाण्डीवचालनकौशलं श्रीकृष्णस्य सान्निध्यं च न प्राप्स्यम् इति. अर्जुनः आदौ न चिन्तितवान् यत् धर्मकार्यं न अभविष्यत् चेत् अहं गाण्डीवचालनकौशलं श्रीकृष्णस्य सान्निध्यं च न प्राप्स्यम् इति.
यदि सः न चिन्तितवान् अतः तत्र यत् इति आरभ्य तदनन्तरं यत् वाक्यमस्ति तस्य एव परिवर्तनं करोतु भगिनि.
यदि धर्मकार्यं यदि धर्मकार्यं न भूतवत् स्यात् तर्हि गाण्डीवचालनकौशलं श्रीकृष्णसान्निध्यं च न प्राप्तवान्
इदानीं स्याम् स्याम् इति तावदेव. अहम् इति अस्ति अतः अहं न प्राप्तवान् स्याम् समीचीनं भगिनि. तदेव अस्ति. अतः तत्र कृष्णः एतत् चिन्तनम् आदौ न कृतवान्. अतः तत्र एतत् सर्वम् अभवत्. अस्तु समीचीनम्. अस्तु अग्रे तत्र उषा भगिनी अग्रे.
आं महोदय. आचार्यः सः युद्धभूमौ एव विषादग्रस्तः अभवत्. यदि विषादरहितः अभविष्यत् तर्हि गीतोपदेशस्य अवसरः न अभविष्यत्. अर्जुनः युद्धभूमौ एव विषादग्रस्तः अभवत्.
तत्र विषादेन पीडितः आसीत्
सः. यदि विषादरहितः अभविष्यत् यदि विषादं न करोति चेत् तर्हि गीतोपदेशस्य आवश्यकं तत्र न भवति.
तत्र अवसरः न अभविष्यत्, सन्दर्भः न अभविष्यत्.
अधुना सः युद्धभूमौ एव विषादग्रस्तः अभवत्. यदि विषादरहितः भूतवान् स्यात् तर्हि गीतोपदेशस्य अवसरः न भूतवान् स्यात् अपि च
न भूतवान् स्यात् तदेव न भूतवान् स्यात्. तत्र यदा वयं तत्र लृङ्लकारस्य परिवर्तनं कुर्मः विधिलिङ्गि तत्र तवतो विधिलिङ्गि तत्र नकारः तिष्ठति एव. वस्तुस्थितेः वर्णने तत्र नकारस्य भ्रमः भवति. अस्तु इदानीम् अग्रे धन्यवादः भगिनि. अस्तु इदानीं तत्र अग्रे तत्र एतावत्. अस्तु अग्रे पुनः तत्र नरेश महोदय पठितुं शक्नोति वा इदानीम्?
आं महोदय.
अस्तु अग्रे. मोहग्रस्तः
विजयः वदति मोहग्रस्तः धनञ्जयः ऋषिकेशं प्रार्थयत यत् मम साहाय्यं करोतु.
तत्र किं किम् अस्ति किञ्चित् विवृणोतु तस्मिन् वाक्ये. इदानीं तत्र लृङ्लकारः नास्ति किञ्चित् किन्तु वाक्ये किं किम् अस्ति इति किञ्चित्
धनञ्जय अर्जुनः मोहग्रस्तः आसीत्.
तत्र विशेषणम्
अस्ति. सः ऋषिकेशं कृष्णं प्रार्थयत. सः प्रार्थनां कृष्ण उद्दिश्य प्रार्थनां करोति यत् मम साहाय्यं करोतु. सः
यस्य तत्र ग्रस्तः तत्र ग्रसते इति क्रियापदं मोहेन सः तत्र सः तत्र कः ग्रस्तः आसीत् तत्र मोहेन अर्जुनः ग्रस्तः आसीत् अतः सः तादृशः अर्जुनः अस्ति अतः मोहग्रस्तः अर्जुनः प्रार्थयत. तत्र प्रार्थयत किं प्रार्थयत
मम सहायं करोतु,
मम सहायं करोतु इति. अस्तु, अग्रे
आचार्यः वदति, तदा श्रीकृष्णः कुरुक्षेत्रे अष्टादशाध्यायिनीं गीताम् उपादिशत्. तदा श्रीकृष्णः तत्र कुरुक्षेत्रे तत्र गीताम् उपदेशः दत्तवान्. गीताम् अष्टाध्यायिनी अस्ति, तत् तु तस्य विशेषणम् अस्ति. गीतां स्त्रीलिङ्गपदम् अस्ति, अष्टादशाध्यायिनीम् अपि स्त्रीलिङ्गवाक्यमस्ति.
हा, समीचीनं महोदय.
क्षम्यतां महोदय, प्रार्थयत इति लङ्लकारः वा?
प्रार्थयत, नरेश् महोदय, प्रार्थयत इति किम् अस्ति, लङ्लकारः अस्ति वा?
प्रार्थयत तु
आत्मनेपदि धातु वा?
आत्मनेपदी अस्ति,
प्रार्थनेपदि इति वा?
न,
पूर्वं
लट् लकारे प्रार्थयति, प्रार्थयते अस्ति. अत्र तु लङ् लकारः अस्ति, प्र किमस्ति, प्रार्थयत आत्मनेपदी तु अस्ति.
कोऽपि वक्तुमिच्छति वा तत्र किमस्ति इति? आत्मनेपदी एव खलु तत्र, किन्तु
आत्मनेपदी एव महोदय.
हा, तत्र उपसर्ग अस्ति वा अत्र?
प्रार्थयत इति अस्ति,
प्रार्थये इति वयं श्रुतवन्तः पूर्वं, प्रार्थये इति उत्तमपुरुषे. अहं प्रार्थये इति वयं श्रुतवन्तः. प्रार्थयते इति प्रथमपुरुषे एकवचनं.
हा, किन्तु उपसर्गः अस्ति वा तत्र?
धातुः कः इति? अर्थ, अर्थधातुः.
प्र उपसर्ग
अर्थयत इति भवति, प्र उपसर्गस्य योजनेन प्रार्थयत इति भवति.
तत्तु लङ्लकारः अस्ति.
तत्र लट् लकारे उपसर्गरहितधातोः लट् लकारे एकवचन प्रथमपुरुषे एकवचनरूपं किम् अस्ति?
अर्थयते,
अर्थयते. अस्तु, अस्तु. लक्ष्मी भगिनी, समीचीनं वा इदानीं? अस्तु, अतः तत्र प्रयोगः अर्थयत, प्रार्थयत. अस्तु, समीचीनम्. अग्रे
अग्रे विजयः वदति, उपदेशं श्रुत्वा अर्जुनस्य मोहः नष्टः, स्मृतिः लब्धा. अत्र सः अर्जुनः उपदेशं श्रुतवान्, श्रीकृष्णस्य उपदेशं श्रुतवान्, तदा तस्य मोहः जातः,
नष्टः, नष्टः जातः,
नष्टः, नष्टः
इदानीं न जातः खलु, मोहः नष्टः अभवत्. हा,
नष्टः अभवत्. अपि च स्मृतिः लब्धा.
हा, नाम सः तस्य बुद्धिः तत्र समीचीनं चिन्तनशक्तिः इदानीं तेन प्राप्ता, सा शक्तिः पुनरागता. अतः सः सम्यक्तया अवगन्तुं शक्नोति तत्र किं करणीयम् इति.
सम्यक् चिन्तनं
कर्तुम् इदानीं सः शक्नोति. अस्तु, अग्रे
मीनाक्षी, परिणामतः नष्टमोहः अर्जुनः युद्धाय असन्नह्यत. परिणामतः सः उपदेशं श्रुतवान्, तदा किम् अभवत्, परिणामः किम् अभवत्, अर्जुनस्य मोहः नष्टः जातः तदा अर्जुनस्य विशेषणमस्ति नष्टमोहः. नष्टमोहः अर्जुनः युद्धाय असन्नह्यत.
हा तत्र असन्नह्यत इति पदं समीचीनं नास्ति इति
न अहं चिन्तयामि. सन्नह्यत
किमपि अस्ति.
सम्यक् नास्ति.
हा तत्र अकारः आदौ समीचीनं नास्ति. तत्र नह् इति धातुः, तत्र नह् इति धातुः सम् इति प्राश तत्र सन्नह्यते. हा हा सन्नह्यते इति प्राश तत्र कर्तृ तत्र आत्मनेपदे धातुः अस्ति. तत्र नह् इति धातुः तत्र उभयपदी अस्ति. तत्र नह्यति इति रूपम् अस्ति, नह्यते अपि रूपम् अस्ति. किन्तु तत्र
आत्मनेपदे
अतः तत्र प्रायशः सन्नह्यते इति तत्र तस्य
लट्लकार प्रथम
लट्लकार अस्ति. अतः तत्र तदनन्तरं तत्र तस्य लङ्लकारः अनह्यत इति भवति. पुनः तत्र संयोगः सन्नह्यत इति प्रायशः तत्र रूपमस्ति. तत्र अकारस्य अकारः समीचीनं नास्ति इति. अस्तु समीचीनं महोदय. इदानीं तत्र अपि तत्र अस्मिन् वाक्ये अपि पूर्वस्मिन् वाक्ये तत्र मोहः नष्ट इति अस्ति, अस्मिन् वाक्ये नष्टमोहः इति अस्ति. तत्र भेदः कः?
तत्र तु नष्टः क्रियापदम् अस्ति. अत्र नष्टमोहः विशेषणं
भवतु न तप्रत्ययः नष्टः मोहः इति पदस्य विशेषणम् अस्ति. तत्र कः नष्टः? मोहः नष्टः. किन्तु नष्टमोहः इति इत्युक्ते किम्?
तत् अर्जुनस्य विशेषणं भवति.
हा तत्र यस्य मोहः नष्टः सः नष्टमोहः. हा तत्र मोहः नष्टः, तत्र नष्टः विशेषणम् अस्ति. मोहः विशेष्यम् अस्ति, नष्टः विशेषणं, मोहः विशेष्यं. किन्तु अत्र नष्टमोहः, यस्य मोहः नष्टः सः नष्टमोहः. अत्र सः अर्जुनः अस्ति. तत्र प्रश्नः आसीत् अपर्णा भगिनी.
आं महोदय, मम एका शङ्का अस्ति. पूर्वस्मिन् वाक्ये अर्जुनस्य मोहः नष्टः स्मृतिः लब्धा, अत्र नष्ट लब्धा द्वौ अपि सकर्मक धातु स्तः. अत्र कर्तरिवाक्ये कथं तप्रत्ययस्य उपयोगं कृतम् अस्ति महोदय?
हा हा अस्तु. तत्र
सकर्मक अस्ति, लब्ध धातु सकर्मक अस्ति.
हा सत्यं. किन्तु अत्र तप्रत्ययः अस्ति चेत् तत्र कर्मणि रूप भूतकाले अर्थे भवति.
परन्तु अत्र कर्तरि अस्ति किल. उपदेशं श्रुत्वा अर्जुनस्य मोहः नष्टः
अस्ति इति एव तत्र. अतः तत्र इदानीं तत्र किम् अस्ति? तत्र कर्तृपदं न दत्तं खलु.
अध्याहारं कर्तव्यम्. उपदेशं श्रुत्वा अर्जुनस्य मोहः नष्टः स्मृतिः लब्धा अभवत्.
उपदेशेन मोहः नष्टः, उपदेशेन स्मृतिः लब्धा
अभवत् इति अध्याहारं कर्तव्यम्.
अतः तत्र उपदेशं मोहं नश्यति, अपि उपदेशं स्मृतिं तत्र उपदेशम् इति मोहं नश्यति इति तु समीचीनं. तत्र किन्तु उपदेशेन स्मृतिः लब्धा तत्र तत्र किं भवति? तत्र उपदेश
अभवत् केवलम् अभवत् इति महोदय अभवत् इति अध्याहारं कर्तुं शक्यते वा? उपदेशं श्रुत्वा अर्जुनस्य मोहः नष्टः स्मृतिः लब्धा अभवत्.
तत् समीचीनं. तत् तथैव अस्ति, तथैव अस्ति.
अस्तु धन्यवादः.
धन्यवादः. अस्तु अग्रे तत्र शुभदा भगिनी अग्रे. शुभदा भगिनी.
अस्तु महोदय, श्रूयते वा?
श्रूयते भगिनि.
अर्थात् यदि कृष्णः अर्जुनं न उपादेक्ष्यत् तर्हि सः अयोच्यत, पाण्डवाः नैव अजेष्यन्. अत्र अर्थात् यदि कृष्णः न अर्जुनं न उपादेक्ष्यत् तर्हि सः अयोच्यत. यदि कृष्णः अर्जुनम्
पश्यामः, तत्र नकारस्य आवश्यकता अस्ति वा न इति द्वितीयभागे. अस्तु, अत्र वस्तुस्थितिः का? कृष्णः
कृष्णः अर्जुनम् उपदिष्टवान्,
अपि अतः अपि अर्जुनः युद्धं कृतवान् खलु.
आम्,
युद्धं कृतवान्. हा, इदानीं तत्र यदि अर्जुनं न उपादेक्ष्यत्, तत्र यदि कृष्णः अर्जुनं न उपदिष्टवान् स्यात् तर्हि अर्जुनः किम्? न युद्धं कृतवान् स्यात् खलु.
किञ्चित् भ्रमः अस्ति महोदय.
तत्र तर्हि सः इति तदनन्तरं मध्ये न अयोच्यत इति स्थापनीयं, नकारः स्थापनीयमिति मन्ये.
कृष्णः अर्जुनं न उपादेक्ष्यत् तर्हि सः अयोच्यत.
सः न अयोच्यत,
न इति
स्थापनीयं, स्थापनीयं,
स्थापनीयम्.
तत्र नास्ति,
तदेव. अतः
समीचीनं खलु भगिनि, तत्र
इदानीं समीचीनं. कृष्णः अर्जुनं न उपादेक्ष्यत् तर्हि सः न अयोच्यत.
तव तु अपि विधिलिङ्गलकारम् उपयुज्य वदतु तत्र. यदि
यदि कृष्णः अर्जुनं न उपदिष्टवान् स्यात् तर्हि अर्जुनः न युद्धवान्
युद्धवान् अथवा युद्धं कृतवान्
युद्धं कृतवान् स्यात्. तर्हि अर्जुनः युद्धं न कृतवान् स्यात्
इति खलु.
आम्
इति एव. अतः तत्र नकारः आवश्यकं. वयं जानीमः तत्र विधिलिङ्ग् तव तु विधिलिङ्ग् अपि तत्र लृङ्लकारस्य मध्ये परिवर्तनं एकस्मात् अन्यत् यदि परिवर्तनं कुर्मः तस्मिन् समये नकारः तिष्ठति एव,
तिष्ठति एव.
आम्, केवलं वस्तुस्थितेः विवरणे नकारः गच्छति, यतोहि तत्र लृङ्लकारे नकारः नास्ति चेत् तद् न अभवत् इति चिन्तनं खलु.
विपरीतं भवति.
हा, विपरीतं भवति इति कृते. अग्रे पाण्डवाः,
पाण्डवाः नैव अजेष्यन्. एतत्तु सरलं वाक्यमेव.
हा, किन्तु तत्र इदानीं तत्र यदि कृष्णः अर्जुनं न उपादेक्ष्यत् तर्हि पाण्डवाः नैव अजेष्यन् इति. अतः इदानीं तत्र तव तु विधिलिङ्ग करोतु तत्र. यदि कृष्णः अर्जुनं न उपदिष्टवान् स्यात्,
यदि कृष्णः अर्जुनं न उपदिष्टवान् स्यात् तर्हि पाण्डवाः नैव जितवन्तः स्यात्.
स्युः, हा, तवदेव.
हा, स्युः, स्युः,
स्युः, तावदेव. जितवन्तः स्युः, तावदेव. समीचीनं. हा, अस्तु, तत्र अग्रेपि कर्तुम् इच्छति वा अग्रिमवाक्यम्?
आं महोदय, प्रयत्नं करोमि. विजयः वदति, न वा वयं गीतारूपम् अमूल्यनिधिम् अलप्स्यामहि.
नाम यदि कृष्णः अर्जुनं न उपदिष्टवान् स्यात् तर्हि वयं
गीतारूपम् अमूल्यनिधिं न लब्धवन्तः.
इदानीं तत् अत्रापि तत्र
लब्धवन्तः
न इति स्थापनीयम् इति खलु, अत्र नकारः अस्ति. हा, अतः न
लब्धवन्तः
लब्धवन्तः. इदानीं किन्तु कर्तृपदं भयम् इति अस्ति ते इति नास्ति
परन्तु क्तवतु अस्तु अस्ति चेत् तदेव
किन्तु तत्र हा हा किन्तु
लङ् लकारः नास्ति क्तवतु अस्ति चेत्
क्तवतु अस्ति किन्तु तत्र अन्ते विधिलिङ्गकार कर्तृपदम् अनुसृत्य एव खलु अतः तत्र तत्र स्यात् इति एकवचने उत्तमपुरुषे एकवचने स्यात् उत्तमपुरुषे एकवचने स्युः इदानीं भयम् इति
स्यां स्याव स्याम न लब्धवन्त स्याम इति
स्याम इति तावदेव अस्ति अतः पुनः एकवारं यदि पूर्णवाक्यं यदि
यदि कृष्णः अर्जुनं न उपदिष्टवान् स्यात् तर्हि वयं गीतारूपम् अमूल्यनिधिं न लब्धवन्तः स्याम
स्याम तत्र गीतारूपं तत्र अमूल्यनिधिः अस्ति किमस्ति अमूल्यनिधिः अथवा का अस्ति अमूल्यनिधिः तत्र प्रायः गीतारूपम् इति एव स्वीकृतमस्ति अतः तत्र निधिम् इति
रूपमस्ति अतः निधिम् इति
हा गीतारूपम् अमूल्यनिधिं तत्र निधिः अमूल्यनिधिः तत् किं तत्र अत्र गीता भगवद्गीता एव तत्र अमूल्यनिधिः तस्य प्राप्तिः न भवेत् समीचीनं भगिनि धन्यवादः
नमस्ते महोदय महोदय
नमस्कारः
महोदय एकवारम् आहत्य तत्र नकारः कुत्र अस्ति कुत्र नास्ति अहं लेखितुमिष्यामि एकवारं वक्तुं शक्यते वा महोदय किञ्चित् भ्रमः अस्ति तत्र तु मम
कुत्र
वस्तुस्थितिः का अस्ति अपि च वस्तुस्थितिः का अस्ति अपि च लुट् लकाररूपं यदि नकारः अस्ति तवत् रूपे नकारः नास्ति वा अस्ति वा
अस्तु अस्तु एतदेव इदानीं तत्र सम्भाषणं समापयामः तदनन्तरं तत्र इदानीं वाक्यानि तत्र उदाहरणानि सन्ति तस्य तत्र परिशीलयामः किन्तु
पूर्वस्मिन् कक्षाया समीचीनम् आसीत् परन्तु अधुना पुनः भ्रमः वर्तते महोदय न जानामि
लृङ्लकारे लृङ्लकारे क्रियाद्वयमस्ति खलु
अस्तु हा
तत्र नकारः नास्ति चेत् कार्यद्वयं न अभवत्
कार्यद्वयं न अभवत् अतः कार्यद्वयं
अस्तु नकारः कार्यद्वयमपि न अभवत्
समीचीनं वस्तुस्थितिः न अभवत् तदेव न
हा वस्तुस्थितौ तत्र कार्यद्वयमपि न अभवत्
समीचीनम्
इदानीं तत्र नकारः अस्ति चेत् तत्र कार्यम् अभवत् इति चिन्तनम्
अस्तु
लिङ्लकारे नकारः नास्ति चेत् विधिलिङ्लकार तवतु विधिलिङ्ग् तादृशं वाक्यं कुर्मः चेत् तत्रापि नकारः नास्ति
पुनः वदतु महोदय लुट् लकारः
वाक्ये लृङ्लकारस्य वाक्ये नकारः नास्ति चेत् विधिलिङ्गकाररूपे अपि नकारः नास्ति
नास्ति अतः लिङ् विधिलिङ्ग् तवतु त्रयोः
नकारः अस्ति चेत् तिष्ठति नकारः नास्ति चेत् अपि नकारः न आगच्छति समानरूपं भवति
केवलम् अस्तु
केवलं वस्तुस्थितेः वर्णने तत्र विरुद्धार्थकः अस्ति इति कृत्वा तत्र विपरीतार्थः अस्ति इति कृत्वा तत्र नकारः नास्ति चेत् तद् न अभवत् नकारः अस्ति चेत् तद् अभवत् तावदेव
ओ अस्तु समीचीनं महोदय
तत्र वाक्योः परिवर्तनसमये किमपि नकारस्य नूतननकारः न आनेतव्यं वर्णने विपरीतं वक्तव्यं तावदेव
महोदय महोदय लृङ्लकारे लृङ्लकारे यदि न अस्ति चेत् गणिते अस्ति तथा माइनस् अधिक माइनस् प्लस् भवति तथा भवति वा
तथैव अस्ति तथैव अस्ति
अस्तु अस्तु
तथैव अस्ति भगिनि हा तत्र
अस्तु
द्विवारं माइनस् अस्ति चेत् तद् प्लस् भवति इति एव चिन्तनं करणीयं सत्यं भगिनि
धन्यवादः
समीचीनं हा समीचीनं भगिनि हा
अस्तु
अस्तु हा अतः तत्र इदानीं वंशीसुद भगिनि भवती एव तत्र अन्तिमवाक्यद्वयं सम्भाषणे करिष्यति वा
मीनाक्षी इति तत्र न महोदय अहं यदि अहं यदि गीतां न अपठिष्यं तर्हि जगतः वास्तविकस्वरूपं न अज्ञास्यम्
तत्र भवतु विधिलिङ्ग् इति उपयुज्य स्यात् स्याम् इति उपयुज्य वदतु वाक्यम्.
अस्तु महोदय, प्रयत्नं करोमि. यदि गीतां न अपठिष्यं, तत्र तु लिङ्ग्लकाररूपमस्ति.
यदि अहं गीतां,
हा, यदि अहं गीतां न अपठं,
न पठितवती, पठितवती स्याम्.
यदि अहम् इति अस्ति न महोदय, विधिलिङ्ग्
पठितवती, भवती तु पठितवती इति एव वदति. तत्र तव तु अपि विधिलिङ्ग्.
अस्तु, अपठिष्यम् इत्यस्य विधिलिङ्ग्लकारः अस्ति.
अपठिष्यम् इति तस्य विधिलिङ्ग्लकारः नास्ति, पट् धातोः विधिलिङ्ग्लकारः. तत्र पठेयम् इति अपि मास्तु, तत्र भवतु, तदनन्तरं स्यात् स्यां, ते केवलं तत्र एव.
अस्तु महोदय,
तावदेव पर्याप्तं.
यदि अहं यदि गीतां न अपठितवती,
केवलं पठितवती खलु, भवतु पठितवती.
ओ अस्तु अस्तु महोदय, अहं यदि अहं गीतां न पठितवती तर्हि जगत्
स्याम्.
अस्तु, न पठितवती स्यां, पठितवती स्यां, स्यां, तर्हि जगतः वास्तविकस्वरूपं न ज्ञातवती स्याम्.
हा, इति इदानीं वाक्यस्य अवगमनं सुलभतया भवति खलु.
अस्तु 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 महोदय, किञ्चित् किञ्चित्.
यदि अहं गीतां न पठितवती स्यां तर्हि जगतः वास्तविकस्वरूपं न ज्ञातवती स्याम्. इदानीम् अतः वस्तुस्थितिः का तर्हि भवति?
वस्तुस्थितिः तु पठितवती इति भवति,
गीतां पठितवती,
हा, अपि च वास्तविकरूपं ज्ञातवती,
ज्ञातवती इति एव वस्तुस्थितिः.
अस्तु,
यतोहि तत्र भागद्वये अपि तत्र नकारः अस्ति.
अस्ति अस्ति, आम् महोदय,
इदानीम् अन्तिमं.
न केवलं तत्, अस्य उपनिषत् सारम् अमृतस्य न केवलं तत्, अस्य उपनिषत् सारम् अमृतस्य आस्वादनात् एव वयं वञ्चिताः अभविष्याम. आस्वादनात् एव वयं वञ्चिताः, वञ्चिताः इत्युक्ते तत्र
तद् न प्राप्तम् अस्माकं, तत्र तद् अवसरः न भवेत् इति, वञ्चितः, वी हव् बीन् राब्ड् आफ् दट् आपर्चुनिटि इति, डिप्रैव्ड् आफ् दट् आपर्चुनिटि,
वञ्चितः. अस्तु अस्तु महोदय, न केवलं तत्, अत्र तु अभविष्याम, अभविष्याम इति तु वयम् इति अर्थे अस्ति, अस्य
उपनिषत्कारे अस्ति,
हा, परन्तु कार्यद्वयं कुत्र, न केवलं तत्, अत्र उपनिषत्,
यदि वयं तत्र गीतां न केवलम् अपठिष्यामः इति अस्ति, तत्र अपठिष्यामः, यदि वयं गीतां न अपठिष्यामः तर्हि अस्य सारामृतस्य आस्वादनात् एव वयं वञ्चिताः अभविष्याम इति पूर्णवाक्यम्.
ओ अस्तु महोदय, तस्मात् पूर्वं यत् अस्ति, अस्तु, यदि वयं गीतां
न अपठिष्याम,
न तत्र तु
वयं, इति अस्ति इदानीम् अतः,
परन्तु तव तु रूप, अस्तु,
केवलं तत्र लृङ्लकाररूपम्.
अस्तु, अहं यदि वयं गीतां न अपठिष्याम तर्हि उपनिषत्सारम् अमृतस्य वयं वञ्चिताः अभविष्याम इति भवति न महोदय?
अस्तु, इदानीम्
अधुना तवत् रूपं वक्तव्यं किल महोदय? यदि वयं गीतां न पठितवन्तस्याम भवति वा,
पठितवन्तः स्याम,
हा, पठितवन्तः स्याम,
तर्हि
वयं वञ्चिताः भवन् न किं भवति,
तत्र प्रायशः अभविष्याम तत्र भूतवन्तः स्याम
भूतवन्तः भूतवन्तः
अस्ति तत्र प्रायशः तत्र स्याम
किं भवति
स्याम इति एव
अस्तु तत्र धातुद्वयमपि समानार्थकौ समानार्थकौ न तत्रैव चिन्तितवती
पाठः पठितः अस्ति तत्र समानार्थ
समीचीनम् अतः तत्र प्रथमवाक्ये तु नकारः अस्ति तत्र नकारः तिष्ठति एव द्वितीयवाक्ये नकारः नास्ति तत्र नकारः न भवति इति न महोदय
सत्यं
अस्तु परन्तु वस्तुस्थिति तु तत्र गीतां पठितवन्तः
अतः आस्वादनं कृतवन्तः
आस्वादनं
अभविष्यत् इति अभवत्
अस्तु
अभवत् इति अस्ति
किमर्थम् एतादृशः जटिलः अस्ति न जानामि
जटिलः एव नास्ति भगिनि एतद् लोके बहुवारम् एतस्य प्रयोगः भवति भवति तु अहं चिन्तयामि वयं सर्वे अनेकवारम् आङ्ग्लभाषायां if this had happened then I would have done this then I would have done that ha 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 bahuvaram shunmah kalu
ha ekvaram tatra pari
saheva prayogah atah tatra jatilah nasti kevalam tatra
jatilah nasti parantu
vara dvivaram trivaram yadi kurmah tadanantaram sulabah eva
samichinam mahode ekvaram pashyam punah pashyami mahode
kintu asya prayogah आङ्ग्लभाषायां तु बहुवारं भवति इति कृत्वा संस्कृतभाषायामपि भवेत् खलु
हा समीचीनं तत्र तु सरलमेव दृश्यते अत्र तु न जानामि किमर्थम् एकवारं पुनः पश्यामि
अभ्यासदोषः अभ्यासात्
तत् सम्यक् तत् अहमपि वदामि समीचीनमेव अस्तु महोदय
इति तत्र अभ्यासमेव सर्वं सरलं भवति अस्तु तर्हि अग्रे सराम गीताञ्जलि
एकवारम् अहं कोष्टकं कृत्वा आगच्छामि महोदय अग्रिमकक्षायां तत्र तत्र कुत्र नकारः तत्र समीचीनं भवति अस्माकम् अवगमनं भवति अहं प्रेषयिष्यामि महोदय कृत्वा प्रेषयिष्यामि अस्तु महोदय
नमस्कारः समीचीनं गीताञ्जलि भगिनी नमस्कारः
नमस्ते महोदय क्षम्यतां महोदय बहु विलम्बेन
हा चिन्ता मास्तु भगिनी पुटसङ्ख्या अस्ति 108 अस्तु अग्रे तत्र पुनः तत्र हा ललिताकुमारी भगिनी अग्रे पठति वा पठता
पठत अवगच्छत च अर्जुनेन सह यदि श्रीकृष्णः न अभविष्यत् तर्हि सः युद्धं न अकरिष्यत्
अतः तत्र अत्र नकारः नकारः अस्ति इदानीं तत्र तव तु विधिलिङ्ग् उपयुज्य वदतु भगिनि तत्र
अर्जुनेन सह यदि श्रीकृष्णः न भूतवान्
स्यात्
न भूतवान् स्यात् तर्हि सः युद्धं न कृतवान् स्यात्
हा इति समीचीनम् हा इदानीं तत्र सुलभतया अवगन्तुं शक्नुमः खलु तत्र लिङ्गकारस्य
वाक्य
तावदेव अस्ति समीचीनं तत्र प्रायशः तत्र सः इति तत्र किञ्चित् भ्रमः भवति यतोहि तत्र सः इत्युक्ते तत्र अर्जुनः किन्तु प्रथमभागे अर्जुनेन इति अस्ति तत्र कर्तृपदं नास्ति अतः किञ्चित् तत्र भ्रमः भवति किन्तु वयं जानीमः इति कृत्वा सः इत्युक्ते अर्जुनः इति अस्ति समीचीनं भगिनि अस्तु धन्यवादः अस्तु अग्रे तत्र उषा भगिनी अग्रे द्वितीयवाक्यम्
आं महोदय अर्जुनः यदि रणाङ्गणात् पलायिष्यत् तर्हि इतिहासः तम् अनिन्दिष्यत् अर्जुनः यदि रणाङ्गणात्
पलायिष्यत्
तर्हि इतिहासः तम् अर्जुनं तम् इत्युक्ते अर्जुनम् आनिन्दिष्यत् अधुना तव तु
सः न पलायनं न कृतवान् खलु सः
आं महोदय
अतः इदानीं तत्र विधिलिङ्गे भवतु विधिलिङ्गे वदतु
अर्जुनः यदि रणारङ्गणात्
न रणारङ्गणात् न रणाङ्गणात्
रणाङ्गणात् अस्तु क्षम्यतां महोदय रणाङ्गणात् पलायितवान् स्यात्
पलायितवान् इति पलायनं कृतवान् इति स्वीकुर्मः
पलायनं कृतवान् स्यात् तर्हि इतिहासः तम् अनिन्दिष्यत् तं निन्दितवान्
न निन्दितवान् यतोहि इतिहासः इति पुल्लिङ्गपदं
निन्दितवत् स्यात्
न इतिहासः तु पुल्लिङ्गपदं किमर्थं
निन्दितवान् स्यात्
हा निन्दितवान् स्यात् किन्तु नकारः नास्ति एव अत्र अतः वस्तुस्थितिः तत् तत्र कार्यक्रियाद्वयमपि न अभवत् समीचीनं हा अस्तु अग्रे शोभा भगिनी
आं महोदय पाण्डवाः अज्ञातवासे वासांसि अभिधानानि च यदि न पर्यवर्तयिष्यन् तर्हि तेषाम् अभिज्ञानम् अभविष्यत् अस्तु महोदय तत्र पाण्डवाः अज्ञातवासे वासांसि
नाम किं
वासांसि तत्र सप्तमी विभक्ति
न वासांसि इति सप्तमी नास्ति
अज्ञातवासे
तत्र क्रियापदं पर्यवर्तयिष्यन्
परि अवर्तयिष्यन् इति भवति किल महोदय
परि तत् समीचीनं परियोगः
अवर्तयिष्यन्
परियोगः अवर्तयिष्यन् तत्र
तत्र न इति अस्ति तत्र परिवर्तन्ते एव
परिवर्तते इति चिन्तयतु तत्र किन्तु तत् सकर्मकक्रियापदमस्ति चेत् तत्र अभिधानानि वासांसि तु किं भवति
अज्ञातवासे अभिधानानि वासांसि विशेषणविशेषं भवति तत्र
न अज्ञातवासे इति कस्मिन् समये ते परिवर्तनं कृतवन्तः किं परिवर्तनं कृतवन्तः तत्र अथवा कस्य परिवर्तनं कृतवन्तः नाम
वसति
अस्तु भगिनि तत्र भाषांसि नाम वस्त्राणि इति वस्त्राणि अपि नाम तत्र तेषां वस्त्रं तत्र विशिष्टमस्ति खलु
तत्
साधारणवस्त्रं ते न धरन्ति खलु अतः तत्र ते राजवंशाः सन्ति इति कृत्वा तेषां वस्त्रं भिन्नम् इदानीं तत्र यदि ते तत्र अज्ञातवासे तत्र स्थातुम् इच्छन्ति तादृशवस्त्रं तु तत्र समीचीनं न भवति खलु अतः तत्र वासांसि नाम वस्त्राणि अभिधानानि नाम नामधेयं तत्र नामानि अपि
तत्र वासांसि इति एकवचने किं भवति
न वासांसि इति एकवचने नास्ति तत्र मनः मनसि मनांसि
मनांसि
इति वासस्
किन्तु तत्र मनः मनसि मनांसि मनांसि इति बहुवचनं भवति किल
एतदपि बहुवचने एव
न ओ अस्तु तर्हि तत्र वासः एव वासः
वासस् इति
वासस् वासस् इति प्रातिपदिकं वा महोदय वासः मनः मनसि मनांसि वासः वाससि वासांसि भवति
इति
अस्तु धन्यवादः
अभिधानानि नामानि
नामानि अस्तु पाण्डवाः अस्तु अज्ञातवासे वासांसि अभिधानानि च यदि न पर्यवर्तयिष्यन् तर्हि तेषाम् अभिज्ञानम् अभविष्यत् तत्र तवत् प्रयोगेन वदनीयं वा महोदय
वदतु भगिनि
अस्तु पाण्डवाः अज्ञातवासे यदि अथवा यदि पाण्डवाः अज्ञातवासे वासांसि अभिधानानि च परिवर्तनं न कृतवन्तः
परिवर्तनम् अस्ति चेत् तत्र लुडन्तरूपं भवति भगिनि अतः तत्र षष्ठी भवति तस्मात् प्राक्
अस्तु अस्तु पाण्डवाः अज्ञातवासे मनः वासां मनः मनसि मनः एव मनसः वाससः भवति वा
न वाससः इति एकवचने षष्ठी कोऽपि तत्र सहायं करोति वा तत्र किमस्ति वास तत्र
मनः मनसि इति मनः मनसः इति भवति षष्ठी
बहुवचने वासानां
मनसाम् इति भवति वा? ओ मन वासानां
भाषानां इति कथं भवति महोदय? नरेश् महोदय किम् उक्तवान्?
अहं चिन्तयामि षष्टि बहुवचने वासानां
न भाषानां नास्ति, वासः इति अकारान्तपदं नास्ति. एतत्
वासस् अस्ति महोदय, वासः वाससि वासांसि इति भवति महोदय, मनसः इति न वासः.
न न किन्तु षष्टि विभक्ति,
षष्टि तु वाससः 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 मनस् हा वाससः वाससोः वाससां
वाससां
वाससां. अस्तु धन्यवादः भगिनि.
गीतायामपि श्लोकः, गीतायामपि श्लोकः वासांसि जीर्णानि यदा विहाय नवानि गृह्णानि तवानि देहि.
समीचीनम्.
अज्ञातवासे वाससां तत्र अभिधानानि इति अस्ति, अतः तत्र
अभिधानानाम्
अभिधानानां च न परिवर्तनं कृतवन्तः इति भवति.
परिवर्तनं कृतवन्तः
तर्हि तेषाम् अभिज्ञानं
परिवर्तितवन्तः स्युः इति भवति, भवितुम् अर्हति.
परिवर्ति अस्तु
परिवर्तितवन्तः स्युः
तदपि भवति. इदानीम् एकं रूपं स्वीकुर्मः भगिनि, लक्ष्मी भगिनी समीचीनमेव, सा अन्यत् रूपं स्वीकृतवती, एतदपि समीचीनं.
तर्हि तेषाम् अभिज्ञानं तत्र तु अभविष्यत् इति एव
न न अभविष्यत्
तत्र अस्ति, किन्तु अभवत्
न भूतवत् भूतवत् स्यात्
वा महोदय?
भूतवत् स्यात्,
भूतवत्. ओ क्षम्यतां महोदय, पुनः वदामि, पाण्डवाः अज्ञातवासे वाससाम् अभिधानानां च यदि न परिवर्तनं कृतवन्तः तर्हि
तेषां कृतवन्तः स्यात्
कृतवन्तः
स्युः क्षम्यतां कृतवन्तः
कृतवन्तः स्युः तर्हि तेषाम् अभिज्ञानम् अभिज्ञानम् इति लुडन्त तत्र नपुंसकलिङ्गं भूतवत् स्यात्
अभवत् तत्र समीचीनं भूतवत् स्यात्
भूतवत्
तावदेव. अस्तु चिन्ता मास्तु भगिनी, लक्ष्मी भगिनी उक्तवती तत्र भवती तत्र परिवर्तनं कृतवन्तः इति तत्र
उक्तवती,
तस्य आवश्यकता आसीत्, किन्तु लक्ष्मी भगिनी उक्तवती तत्र तवत् रूपं परिवर्त तस्य
परिवर्तितवन्तः.
अहं चिन्तितवती पाण्डवाः अज्ञातवासे वासांसि अभिधानानि च यदि न परिवर्तितवन्तः स्युः तर्हि तेषाम् अभिज्ञानं न भविष्यति.
इति समीचीनं उत्तमं
महोदय. महोदय एका शङ्का अस्ति, अत्र वासांसि अभिधानानि यत् अस्ति तस्य षष्ठीविभक्ति किं कारणतः कृतवन्तः न ज्ञातुं शक्नोति.
ल्युडन्तरूपं स्वीकृतम् आसीत् भगिनि, तत्र अहं ग्रन्थं पठामि इति अस्ति खलु, इति वाक्यं स्वीकरोतु, अहं ग्रन्थं पठामि, किन्तु तत्र पठामि इति स्थाने पठनं करोमि इति
ज्ञातवती. क्षम्यतां महोदय, धन्यवादः,
चिन्ता मास्तु भगिनि. अभिधानानि नामानि परिचयः अभिधीयते नाम परिचयः नामानि. अस्तु
महोदय,
तत्र वृत् इत्यस्य तव तु वृत्तवान् इति भवति, वृत्तवान् वृत्तवती, अतः अत्र वृत्तवन्तः इति भवेत् इति
वा भगिनि,
वृत्तवन्तः वृत्तवन्तः
परिवृत्तवन्तः इति वा,
क्षम्यतां, वृत्तवन्तः स्युः इति भवेत् अत्र, हा परिवृत्तवन्तः स्युः
वर्तयति, वर्तयति इति अस्ति, परिवर्तयति इति अस्ति खलु भगिनि, तत्र
गुणः न भवति प्रायशः
नित्य अस्ति खलु तत्र
वृत्योगः तव तु
न किन्तु तत्र साक्षात् तत्र परिवर्तते इति नास्ति इति मन्ये भगिनि, तत्र परिवर्तयते इति, यतोहि तत्र अन्यस्य
वर्तते इति
वदामि वा, अहं वदामि वा, अहं वदामि वा,
वदतु भगिनि,
वृत्तधातोः वर्त इति क्रियापदे भवति,
सत्यं,
सो तव तु प्रत्यये कृते इडागमः भवति, अतः परिवर्तितवन्तः इति भवति, इडागमः भवति किल, किन्तु तत्र गुणः प्रायशः न वृत्तधातोः वर्तते इति भवति, परि इति क्रियापदे वर्तते इति भवति, गुणः भूत्वा वर्तते इति भवति वृत्तधातोः, परि इति उपसर्गेन सह परिवर्तते इति भवति, अपि तु बहुवचन तव तु प्रत्यय बहुवचने परिवर्तितवन्तः इडागमः भवति, अतः परिवर्तितवन्तः स्युः इति अहं मन्ये,
हा किन्तु समीचीनं भगिनि, किन्तु शुभदा भगिनि तत्र परिवर्तते अथवा परिवर्तयति इति तत्र मम मनसि चिन्ता,
आं महोदय, अहं चिन्तयामि भवान् सम्यक् वदति, तत्र वर्तयति इति तस्य णिजन्त अस्ति, अतः पर्यवर्तयिष्यन् इति
रूपम् अस्ति खलु अत्र,
आमां णिजन्ते अस्ति अतः,
तत्र अतः तत्र आत्मनेपदी नास्ति अत्र,
आं महोदय, णिजन्ते अस्ति इति कृत्वा तस्य,
हा अतः तत्र तव तु रूपं परिवर्तितवन्तः इति भवितुम् अर्हति खलु,
परिवर्तितवन्तः
उपसर्गेन सह परस्मैपदी,
सत्यं हा उपसर्गेन अपि, तदनन्तरं तत्र निच् अपि अस्ति खलु भगिनि,
आम्
हा अतः तत्र, किन्तु इदानीं समीचीनं सर्वे मिलित्वा वयम् इदानीम् अवगतवन्तः, तदेव समीचीनमस्ति, धन्यवादाः,
धन्यवादः महोदय,
धन्यवादः महोदय,
समीचीनम् अस्ति, अस्तु उत्तमं,
धन्यवादः महोदय,
हा चिन्ता मास्तु भगिनि, तत्र दीर्घवाक्यम् आसीत्, किन्तु वयं तत्र सम्यक्तया कृतवन्तः, सन्तोषजनकः, अस्तु अग्रे तत्र सुजाता भगिनी अग्रे पठितुम् इच्छति वा,
आं महोदय, श्रीकृष्णः यदि स्थिरमतिः भव इति न अवदिश्यत् तर्हि अर्जुनस्य मतिः स्थिरा न अभविष्यत्, श्रीकृष्णः यदि स्थिरमतिः भवेत्
इति अन्तर्ग तत्र गर्भवाक्यम् अस्ति नाम
भव इति न अवदिश्यत्
उक्तवान् स्यात्
तर्हि अर्जुनस्य मतिः स्थिरा न अभूत्
भूतवती
स्यात्
इति तावदेव अस्ति, तत्र स्थिरमतिः भव इति तत्र स्थिरमतिः तत्र पुल्लिङ्गपदं यतोहि तत्र अर्जुनः स्थिरमतिः भवतु भव स्थिरमतिः भव इति यदि सः न उक्तवान् तर्हि अर्जुनस्य मतिः मतिः स्त्रीलिङ्गे अस्ति स्थिरा स्थिरा न भूतवती स्यात् समीचीनं
महोदय केषुचित् पुस्तकेषु उदितवान् इति दत्तम्
सत्यं सत्यं तदेव प्रायशः समीचीनं रूपम् अहम् उक्तवान् इति स्वीकृतवान् किन्तु उदितवान् एव समीचीनं हा यतोहि अवदिष्यत् इति आसीत् खलु सत्यं उदितवान् इति एव सम्यक् शुभभगिनी
न तत्र रूपद्वयमस्ति महोदय अधुना दृष्टवती तव तु इत्यस्य तत्र कित् अस्ति इति कृत्वा गुणः न भवति किन्तु तत्र किमपि अपवादः भवति इति दृश्यते वर्तितवान् वृत्तवान् द्वयमपि साधु एव महोदय
ओ अस्तु 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 समीचीनं हा अस्तु अतः तत्र द्वयमपि साधु चेत् किं चिन्ता वयं सर्वे त्यजामः अस्तु समीचीनम् अस्तु अग्रे तत्र
धन्यवादः महोदय
धन्यवादः भगिनी हा अस्तु अग्रे नरेश महोदय अग्रे
आं महोदय श्रीकृष्णः यदि अर्जुनस्य सारथिः न अभविष्यत् तर्हि जनाः तं पार्थसारथिः इति न समबोधयिष्यन्
तत्र समबोधयिष्यन् तत्र सम्
उपसर्गः अस्ति
अबोधयिष्यन् हा इति समीचीनं हा इदानीं तत्र तव तु लिङ्ग्
आम् यदि अर्जुनस्य सारथिः न भूतवान् स्यात् तर्हि जनाः तं पार्थसारथिः इति न
इदानीं सम्बोधनं सम्बोधित
सम्बोधितवन्तः
सम्बोधितवन्तः इति मन्ये खलु तत्र
समबोध
समबोधित इति नास्ति सम्बोध यतोहि तत्र सम्बोधयति तत्र अबोधयत् इति अबोधयत् इति
अबोधयत्
अकारः तत्र लङ्लकारेण आगतं खलु अतः तत्र लट्लकारे नास्ति तत्र अकारः सम्भो इति सम्बोध सम्बोधनम् इति तादृशमेव रूपमस्ति खलु
तत् ल्युडन्तरूपं सम्बोध
न ल्युडन्तं हा ल्युडन्तं सम्बोधनं ल्युडन्तरूपं सम्बोध किन्तु तव तु सम्बोधितवन्तः इति मन्ये समीचीनं वा तत्
सम्बोधितवन्तः
इति समीचीनम् इति अहं चिन्तयामि
इति मम चिन्तनमपि
सम्बोधितवन्तः स्युः
सम्बोधितवन्तः इति मन्ये महोदय सम्बोधितवन्तः बोधितवन्तः इति मन्ये खलु तत्र बोधितवन्तः इति अस्ति वा कुत्र
चिन्तयामि
हा बोधितवन्तः अस्ति न महोदय बोधितवान् बोधितवन्तौ बोधितवन्तः
हा अतः सम्बोधितवन्तः स्युः धन्यवादः भगिनि हा समीचीनम् अस्तु धन्यवादः महोदय अग्रे गीताञ्जलि भगिनि अग्रिमवाक्यं करोति वा
आं महोदय अर्जुनः श्रीकृष्णस्य वचनं श्रुत्वा यदि शीघ्रमेव तृप्तिं
प्राप्स्यत्
तर्हि श्रीकृष्णः विस्तरेण गीतां न अवदिष्यत् सत्यं अर्जुनः श्रीकृष्णस्य वचनं श्रुत्वा यदि शीघ्रमेव तृप्तिं
तत्र प्रयोगः
आप्स्यत् तत्र
आप्स्यत् इति
प्राप्तवान्
समीचीनं प्राप्तवान् हा प्राप्नोति प्राप्तवान् स्यात्
प्राप्तवान् स्यात् तर्हि श्रीकृष्णः विस्तरेण गीतां न उदितवान् स्यात्
स्यात् तावदेव समीचीनं हा अतः तत्र वयं सर्वे तत्र श्री केवलं श्रीकृष्ण कृष्णाय इति न अर्जुनाय अपि तत्र धन्यवादाः समर्पयामः यतोहि यदि सः उक्तवान् आमामाम् अहं सर्वम् अवगच्छामि तत्र किं भगवद्गीता तत्र लघु अतिलघु पुस्तकं भवेत् खलु किन्तु सः उक्तवान् अहं न अवगच्छामि मम मनसि शङ्का अस्ति एतत् किमर्थं भवान् उक्तवान्
अस्माकं कृते
हा अस्माकं कृते किमर्थं योग अपि कर्म द्वयमपि समीचीनम् इति वदति अहं न अवगच्छामि इति एतत् बहुवारं प्रश्नं कृतवान् पृष्टवान् समीचीनम् अस्माकं तत्र हा अस्माकं कृते तु लाभाय अस्तु समीचीनम् अग्रिममपि करोति वा भगिनि भवती तत्र पूर्वं अग्रिमं करोतु
धन्यवादः कौरवाः यदि श्रीकृष्णस्य शान्तिप्रस्तावम् अङ्ग्यकरिष्यन् तर्हि पाण्डवाः न अयोत्स्यन्त अस्तु कौरवाः यदि श्रीकृष्णस्य शान्तिप्रस्तावम् अङ्गीकरिष्यन्
तत्र
अङ्गीकृतवन्तः
तत्र अङ्गी इति साक्षात् उपसर्गः नास्ति खलु किन्तु उपसर्गतुल्यः खलु
तुल्यः अङ्गीकृतवन्तः स्युः तर्हि पाण्डवाः न
युद्धवन्तः युद्धवन्तः कृतवतु पुनः कृतवतु युद्धवन्तः
युद्धवन्तः स्युः न युद्धवन्तः स्युः अयोत्स्य तत्र
युध्यते
युध्यते तु अवगतं किं युध्यवन्तः अस्तु
युध्यते इति अस्तु समीचीनम् अस्तु अग्रे तत्र सर्वे कृतवन्तः वा अस्तु अस्तु लक्ष्मी भगिनी अन्यत् करोति वा
महाभारतयुद्धं न अभविष्यत् चेत् गीतोपदेशः न अभविष्यत् महाभारतयुद्धं न भूतवत् स्यात् गीतोपदेशः न भूतवान् स्यात्
भूतवान् स्यात् समीचीनं तथैव अस्ति अस्तु अग्रे तत्र सर्वे उक्तवन्तः तत्र हा हर्षदा भगिनी तत्र अन्तिमं करोति वा
आं महोदय प्रयत्नं करोमि धर्मराजः द्यूतेन न अक्रीडिष्यत् चेत् पाण्डवाः वनं न अगमिष्यन् धर्मराजः द्यूतेन न क्रीडितवान् स्यात् चेत् पाण्डवाः वनं न गतवान् स्युः गतवन्तः स्युः
इति एव अस्ति तावदेव अस्तु उत्तममस्ति अतः समीचीनम् अतः तत्र लृङ्लकारे वयं सर्वे इदानीं निपुणाः इति चिन्तनं खलु न वा
न जाने अर्जुन
अर्जुनः इव वैदिष्यामः वा महोदय न अवगच्छामः पुनः गीतामेव
किन्तु तत्र वयं तत्र जनार्दन हेग्डे महोदयस्य करपत्रमपि पठितवन्तः
न न समीचीनं भाति महोदय एकवारं पुनस्मरणं करणीयं तथा
इदानीं तत्र अग्रे अपि तत्र अभ्यासः सन्ति
हा सन्ति हा कुर्मः महोदय एकवारं
पर्याप्तम् इति नास्ति
अस्तु अस्तु महोदय
अस्तु तर्हि तत्र अन्ते तत्र शान्तिमन्त्रं तत्र शोभभगिनी वदति वा भगिनी तदनन्तरं
आं महोदय वदामि महोदय एकनिमिषं वयं नूतनाः छात्राः वयं कथं मेल् प्राप्स्यामः
हा भगिनी तत्र अहं प्रायशः स्वरूपमहोदयं पृच्छामि किन्तु अहं तत्र यद् मेल् मम तत्र मम ईमेल् तत्र भवत्याः पार्श्वे अस्ति वा उमा मीनाक्षी भगिनी दत्तवती वा
आमां यः यः सा एक मेल् फार्वर्ड् कृतवती
अहं तत्र चाट् मध्ये प्रेषयामि भगिनि तत्र तत्र
अरे बापा
आत्मा अट् जीमेल् डाट् काम् इति अस्ति तत्र तत्र भवत्याः तत्र ईमेल् प्रेषयतु एकम् ईमेल् प्रेषयतु अहं तत्र स्वरूपमोदीयम् उक्त्वा तत्र स्थापयितुं वदामि
अस्तु अस्तु धन्यवादः महोदय
हा धन्यवादः भगिनि अस्तु अस्तु तर्हि तत्र
वदामि महोदय
ॐ पूर्णमधः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ
धन्यवादः महोदय नमस्कारः
धन्यवादः